श्रीमद्भागवत महापुराणम् एकादशस्कन्धः अथ षष्ठोऽध्यायः। श्रीशुक उवाच, अथ ब्रह्मात्मजैर्देवै प्रजेशैरावृतोऽभ्यगात् भवश्च भूतभव्येषो ययौ भूतगणैर्वृतः इन्द्रो मरुद्भिर्भगवानादित्यावसवोऽश्विनौ रुभवोऽङ्गिरसो विश्वे साध्याश्च देवताः गन्धर्वाप्सरसो नागा सिद्धचारणगुह्यकाः ऋषयः पितरश्चैव सविद्याधर किन्नराः सर्वे कृष्णदिदृक्षवः वपुषा येन भगवान् नरलोकमनोरमः यशोवितेने लोकेषु सर्वलोकमलापहम् तस्यां विभ्राजमानायां समृद्धायां महर्धिभिः व्यचक्षता वितृप्ताक्षात् कृष्णमद्भुतदर्शनम् स्वर्गोद्यानोपगैर्माल्यैश्चादयन्तो यदूत्तमम् गीर्भिश्चित्रपदार्थाभिस्तुष्टुर्जगदीश्वरम् देवा ऊचुः नतास्मते नाथपदारविन्दम् बुद्धीन्द्रियप्राणमनोवचोभिः यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभिः कर्ममयोरुपाशात् त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यम् व्यक्तं सृजस्यवसि लुम्पसि तद्गुणस्थः नैतैर्भवान् जितकर्मिभिरज्यते वै यत्स्वे सुखे व्यवहितेभिरतो न वद्यः शुद्धिर्नृणान्न तु तथीड्यदुराशयानां विद्याश्रुताध्ययनदानतपः क्रियाभिः सत्त्वात्मनां वृषभते यशसि प्रवृद्ध सच्छ्रद्धया श्रवणसम्भृतया यथा स्यात् स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्ररुदो ह्यमानः यः सात्वतैस्तमविभूतयात्मवद्भिर्व्यूहेऽर्चितस्तवनशस्वरति क्रमाय यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ त्रय्या निरुक्तविधिनीश हविर्गृहीत्वा अध्यात्मयोगौतयोगिभिरात्ममायै जिज्ञासुभिः परमभागवतैः परीष्टः पर्युष्टया तव विभो वनमालयेयम् संस्पर्धिनी भगवती प्रतिपत्निवच्छ्रीः यः सुप्रणीतुममुयार्हणमाददन्नो भूयात् सदाङ्घ्रिरशुभाशयधूमकेतुः केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको यस्ते भयाभयकरो सुरदेवचम्मोः स्वर्गाय साधुशुखलेष्वितराय भूमन् पादः पुनातु भगवन् भजतामघन्नः न स्योतगावैव यस्य वशे भवन्ति ब्रह्मादयस्तनुभृतो मिथुरर्द्यमानाः कालस्य ते प्रकृतिपूरुषयोः परस्य षन्नस्तनोतु चरणः पुरुषोत्तमस्य अस्यासि हेतुहृदयस्थितिसंयमानामव्यक्तजीवमहतामपि कालमाहुः सोऽयन्त्रिणाभिरखिलापचये प्रवृत्तक् कालो गभीररयोत्तमपूरुषस्त्वम् त्वत्तः पुमान् समधिगम्य यया स्ववीर्यन् धत्ते महान्तमिव गर्भममोघवीर्यः सोऽयन्तयानुगतात्मनाण्डकोशम् हैमं ससर्ज बहिरावरणैरुपेतम् तत्तस्थुषश्च जगदश्च भवानधीशो यन्माययोऽथ गुणविक्रिययोपनीतान् अर्थायि जुषन्नपि ऋषि कपतेन लिप्तो येन्ये स्वतः परिहृतादपि बिभ्यते स्म स्मायावलोकलवदर्शितभावहारिभ्रूमण्डलप्रहसितसौरतमन्त्रशौण्डैः पत्न्यस्तु षोडशसहस्रमनङ्गबाणैः यस्येन्द्रियं विमथितुं करणैर्न विव्यः विव्यस्तवामृतकथो दवहास्त्रिलोक्या पादावने जसरितः शमलानि हन्तुम् आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गैस्तीर्थद्वयं शुचिषदस्तौपस्पृशन्ति बादरायणिरुवाच इत्यभिष्टूय विबुधै शेषशतधृतिर्हरिम् अभ्यभाषत गोविन्दम् प्रणम्याम्बरमाश्रितः ब्रह्मोवाच भूमिर्भारावताराय पुरा विज्ञापितः प्रभो त्वमस्माभिरशेषात्मौस्तत्तथैवोपपादितम् धर्मश्च स्थापितः सत्सु सत्यसन्धेषु वै त्वया कीर्तिश्च दिक्षु विक्षिप्ताः सर्वलोकमलापः अवतीर्य यदोर्वंशे बिभ्रद्रूपमनुत्तमम् कर्माण्युद्दाम वृत्तानि हिताय जगतो कृथाः यानि ते चरितानीश मनुष्याः साधवः कलौ शृण्वन्तः कीर्तयन्तश्च तरिष्यन्त्यैजसा तमः यद्वंशीवतीर्णस्य भवतः पुरुषोत्तम शरच्छतम् व्यतीताय पैचविंशाधिकम् प्रभो नाधुना तेखिलाधार देवकार्यावशेषितम् कुलै च विप्रशापेन नष्टप्रायमभूदिदम् ततस्त्वधाम परमम् विशस्व यदि मन्यसे सलोकाल्लोकपालान् पाहि वैकुण्ठकिङ्करान् श्रीभगवानुवाच अवधारितमेतन्मे यदाथ विबुधेश्वर कृतं वक् कार्यमखिलं भूमेर्भारोऽवतारितः तदिदं यादवकुलं वीर्यशौर्यश्रियोद्धतम् लोकैजिघृक्षत् रुद्धं मे वेलयेव महार्णवः यद्यसंवृत्य दृप्तानां यदूनां विपुलं कुलं गन्तास्म्यनेन लोकोऽयमुद्वेलेन विनङ्क्ष्यति इदानीन्नाश आरब्धः कुलस्य द्विजशापतः यास्यामि भवनं ब्रह्मन्नेतदन्ते तवानघ श्रीशुक उवाच इत्युक्तो लोकनाथेन स्वयंभू प्रणिपत्यतम् सह देवगणैर्देवस्वधाम समपद्यत अथ तस्यां महोत्पातान् द्वारवत्यां समुत्थितान् विलोक्य भगवानाह यदुरुद्धान् समागतान् श्रीभगवानुवाच एते वै सुमहोत्पाता व्युत्तिष्ठन्तीह सर्वतः शापश्च नः कुलस्यासीत् ब्राह्मणेभ्यो दुरत्ययः न वस्तव्यमिहास्माभिर्जिजीविषुभिरार्यकाः प्रभासं सुमहत्पुण्यं यास्यामोद्यैवमाचिरम् यत्र स्नात्वा दक्षशापाद्गृहीतो यक्ष्मणोडुराट् विमुक्तः किल्बिषात् सद्यो भेजे भूयः कलोदयम् वयै च तस्मिन्नाप्लुत्य तर्पयित्वा पितॄन् सुरान् भोजयिष्वोषि जो विप्रान् नाना गुणवतान्धसा तेषु दानानि पात्रेषु श्रद्धयोक्त्वा महान्ति वै व्रजिनानि तरिष्यामो दानैनौभिरिवार्णवम् श्रीशुक उवाच एवं भगवतादिष्टा यादवात् कुलनन्दन गन्तुम् कृतधियस्तीर्थम् स्यन्दनान् समयूयुजन् तन्निरीक्ष्योद्धवो राजन् श्रुत्वा भगवतोदितम् दृष्ट्वारिष्टानि घोराणि नित्यम् कृष्णमनोव्रतः विविक्त उपसंगम्य जगतामीश्वरेश्वरम् प्रणम्य शिरसा पादौ प्राञ्जलिस्तमभाषत उद्धव उवाच देवदेवेश योगीश पुण्यश्रवणकीर्तन सौरुत्यैतत्कुलं नूनं लोकं संत्यक्ष्यते भवान् विप्रशापं समर्थोऽपि प्रत्यहन्न यदीश्वरः नाहन्त वाङ्घ्रिकमलं क्षणार्धमपि केशव त्यक्तुं समुत्सहेनाथ स्वधाम नयमामपि तव विक्रीडितं कृष्ण नृणां परममङ्गलम् कर्णपीयूषमास्वाद्यत्यजन्त्यन्यस्पृहायि जनः शय्यासनाटनस्थानस्नानक्रीडाशनादिषु कथं त्वां प्रियमात्मानम् वयं भक्तास्त्यजेमहि त्वयोपभुक्तस्रगन्ध वासोऽलङ्कारचर्चिताः उच्छिष्टभोजिनो दासास्तव मायै जयेमहि वातरशनाय ऋषयश्रमणा ऊर्ध्वमन्थिनः ब्रह्माख्यं धाम ते यान्ति शान्ता सन्यासिनो मलाः वयं त्विह महायोगिन् भ्रमन्तक् कर्मवर्त्मसु त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरन्तमः स्मरन्तः कीर्तयन्तस्ते कृतानि गदितानि च गद्युत्स्मिते क्षणे क्षेलि यन्नृलोकविडम्बनम् श्रीशुक उवाच एवं विज्ञापितो राजन् भगवान् देवकीसुतः एकान्तिनं प्रियं मृत्यु मुद्धवम् समभाषत। इति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायामेकादशस्कन्धे षष्ठोऽध्यायः। ॐ श्रीकृष्णार्पणमस्तु।